नमो भगवते रुद्राय ओं नमस्ते रुद्रमण्यव उतो तईशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः या तईषु शिवतमा शिवं बभूवते धनुः शिवाशरव्याया तवतया नो रुद्रमृळया या ते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसीः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुं सुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वाञ्जम्भयन् सर्वांश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रिता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय वीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्तियोर्जाम् याच्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्यानाम् मुखा शिवो न सुमना भव विद्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गधिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नातताय दृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अत्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनाम् पतये नमो नमः सस्तिञ्जराय त्विषीवते पथीराम् पतये नमो नमो बब्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राया तथा विने क्षेत्राणाम् पतये नमो नमः सूताया हन्त्या यवनानाम् पतये नमो नमो रोहिताय सपतये वृक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिघागुंसद्भ्यो मुष्णताम् पतये नमो नमोऽसि मद्भ्यो नक्तम् चरद्भ्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षद्व्योरतकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वरे च नमो गिरिशाय च शिबिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्पाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय च ववृन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेध्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्त्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च पेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्ण्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय चाभिघ्रते च नमः आखिनते च प्रखिनते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता Esham Purushanam Esham Pashunam Mabir Marumbo Esham Kinchanam Amate Yate Rudra Shiva Tano Shiva Vishvaha Beshaji Shiva Rudrasya Beshaji Tayano Mrajivase Imagum Rudraya Tavase Kapadine Shayadviraya Prabharamahe Matim Yathanashyama Sadvipade Chatushpade Vishvam Pushtam Gami Asvinnanaturam Mridano Rudrotano Mayaskrithik Shayadviraya Namasavidhemate Yacham Chayos Chamanuraya Jepita Tadashyamatava Rudra Pranitau Mano Mahanta Mutamano Advakam Mano Ukshanta Mutamano Ukshitam Mano Vadhe Pitaram Motamataram Priyamanat Tanuvo Rudra Ririshaha Manastu Ketanaye Mana Ayushi Mano Goshu Mano Ashveshu Ririshaha Viran Mano Rudra Bhavito Vadir Avishmanto Namasavidhemate Arakte Gugra Utapuru Shagre Shayadviraya Sumnamasvete Astu Rakshachano Adhija Deva Pruyadhachana Sharma Yachat Vibarha Tuhishrutam gartasadam yuvanam Mriganna bhimam upahattu mugram Mridaja ritri rudrastavano Anyante asmannivapantu senaha Parino rudrasya hetirvinaktu paritveshasya durmatira gayo Avastira maghavadhyastanushvamirastokayatanayaya mridaya Midushtamashivatamashivona sumanabhava Paramivriksha ayudhannidhaya krittimvasana acharapinakam vipradagahi Vigiridavilohitanamaste astu bhagavaha Yaste sahasragum etayonyamasmannivapantutaha Sahasrani sahasradhabahuvostava etayaha Tasamishano bhagavapparachina mukhakridhi Sahasrani sahasrachoye rudra adhibhumyam Teshagum sahasrayo jane vadhanvani tanmasi Asmin mahatyan avein tarikshe bhava adhi Nilagriva shitikantha sharva adha kshamachara Nilagriva shitikantha divagum rudra upashrita Ye vrikshesu saspinjara nilagriva vilohita Ye bhuta namadi patayo vishikhasakka pardinaha Ye anne suvividhyanti patre suvivato janana Ye patham patirakshaya aila pradaya vyudaha Ye tirtani pracharanti srikavanto nishanginaha Ya etavantascha bhuyagum tascha disho rudravitastire Teshagum sahasrayo jane vadhanvani danmasi Namo rudre bhyo ye prithivyam ye intarikshi Ye diviye shamannam vato varshamishavaste bhyo Dasha prache dasha dakshina dasha prache chita jodhi chita shodvaste bhyo Namaste no mridayantu teyam dvishvoyaschano Veshtitam vojam bhedadhami Trimvakam yajamahe sugandhim pushtivardhanam Urvarukam ivabandhanat Mrityor mukshiyam amritat यो रुद्रो अग्नौ यो अप्सु यो ओषधीषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतं पाशा मृत्यो मत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां नन्तिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुस्तु ह्यस्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च म औद्भिद्यम् च मे रयिश्च मे रायश्च मे పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మేనం చ మే సుచ్చ మే దేహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్దాశ్చ మే కల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్మా చ మే మృత్తికా చ మే గిరయశ్చ మే పర్వతాశ్చ మే సికతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే సీసం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే వేరుధశ్చ మోషధయశ్చ మే కృష్ణపత్యం చ మే కృష్ణపత్యం చ మే గ్రామ్యాశ్చ మే పశవారణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మయేమశ్చ మయితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే జ్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మే ధిపతిశ్చ మ ఉపాగుంసుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మ ఋతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే ఆర్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే దిష్ణియాశ్చ మే శుచశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృచ్చ మ ఆధవనీయశ్చ మ ఆగ్నేయం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వవృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మే కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే ప్రతిష్టమేద్యోశ్చ మే శక్వరే రంగులయో దిశ్చ మే యజ్ఞేన కల్పంతామృచ్చ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే దిత్యవాచ్చ మే దిత్యౌహీ చ మే పంచావిశ్చ మే పంచావీ చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యౌహీ చ మే పష్టవాచ్చ మే పష్టౌహీ చ మఉక్షా చ మే వశా చ మఋషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మాయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాగుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాక్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మే ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మే ఏక విగుంసతిశ్చ మే త్రయో విగుంసతిశ్చ మే పంచ విగుంసతిశ్చ మే సప్త విగుంసతిశ్చ మే నవ విగుంసతిశ్చ మఏకత్రిగుంసచ్చ మే త్రయస్త్రిగుంసచ్చ మే చతస్రశ్చ మే షౌచ మే ద్వాదశ చ మే షోడశ చ మే విగుంసతిశ్చ మే చతుర్విగుంసతిశ్చ మే అష్టావిగుంసతిశ్చ మే ద్వాత్రిగుంసచ్చ మే షట్త్రిగుంసచ్చ మే చత్వారిగుంసచ్చ మే చతుశ్చత్వారిగుంసచ్చ మే అష్టాచత్వారిగుంసచ్చ మే వాజశ్చ ప్రసవశ్చ పిజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ వ్యశ్మయశ్చాంత్యాయనశ్చాంత్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇడా దేవహోర్మనుర్యజ్ఞనే బృహస్పతిరుక్తా మదాని షగుంసి షద్విశ్వే దేవాసూక్తవాచ పృథివీమాతర్మా మాయిగుంసీర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతీం దేవేభ్యో వాచముద్యాసగుం శుశ్రూషేణ్యాం మనుష్యేభ్యస్తం మా దేవా అవంతు శోభాయై పితరోను మదంతు ఓం శాంతి 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 ఓం తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి 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 సహస్రశీరుషా పురుషః సహస్రాక్షః సహస్రపాద్ స భూమిం విశ్వతో వృత్వా అత్యతిష్ఠద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం उताम्रतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदयित् पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धवे सप्तास्यासन् परिदयः त्रिसप्त समिदः कृताः देवाय यज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तम् यज्ञम् वरेषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारुषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्मिरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादशायत तस्मादश्वा अजायन्त एके चो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कतिदा व्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोर्सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवधन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्थ अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्तताति तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् ಸಮಾಪ್ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯ ಪಂತ ವಿದ್ಯತೆ ಯನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪದೆ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ರುಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ಅಸ್ಯ ದೇವಾ ಅಸನ್ವಶೇ ಏಷ್ಯತೇ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾಪ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾಣ ಅಮುಂ ಮನಿಷಾಣ ಸರ್ವಂ ಮನಿಷಾಣ ತಚ್ಚೈಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೈವೀ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅಗ್ನಿಮೀಲೇ ಪುರೋಹಿತಂ ಯಜ್ಞಸ್ಯ ದೇವಮೃತ್ವಿಜಂ ಹೋತಾರಂ ರತ್ನಧಾತಮಂ ಋಗ್ವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಇಷೇತ್ವೋರ್ಜೇತ್ವಾ ವಾಯವಸ್ಥೋಪಾಯವಸ್ತದೇವೋವತ್ಸವಿತಾ ಪ್ರಾರ್ಪಯತು ಶ್ರೇಷ್ಠತಮಾಯ ಕರ್ಮಣೆ ಯಜುರ್ವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಅಗ್ನ ಆಯಾಹಿ ಭೀತಯೇ ಗೃಣಾನೋ ಹವ್ಯದಾತಯೇ ನಿಹೋತಾ ಸತ್ಸಿ ಬರ್ಹಿಷಿ ಸಾಮವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಶನ್ನೋ ದೇವೀರಭಿಷ್ಟಯ ಆಪೋ ಭವಂತು ಪೀತಯೇ ಶಯ್ಯೋರಭಿಶ್ರವಂತು ನಃ ಅಥರ್ವವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ದೃಢಿ ಸೂರ್ಯ ಆದಿತ್ಯೋ ನ ಪ್ರಭಾವಾತ್ಯಕ್ಷರಂ ಮಧುಕ್ಷರಂತಿ ತದ್ರಸಂ ಸತ್ಯಂ ವೈ ತದ್ರಸಮಾಪೋ ಜ್ಯೋತಿರಸೋಮೃತಂ ಬ್ರಹ್ಮ ಭೂರ್ಭುವಸ್ಸುವರೋ ಛಾಯಾ ಸುವರ್ಚಲಾಂಬಾಸಮೇತ ಶ್ರೀ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ತರಣಿರ್ವಿಶ್ವದರ್ಶತೋ ಜ್ಯೋತಿಷ್ಕೃದಸಿ ಸೂರ್ಯ ವಿಶ್ವಮಾಭಾಸಿ ಲೋಚನಂ ಉಪಯಾಮ ಗೃಹೀತೋಸಿ ಸೂರ್ಯಾಯ ತ್ವಾಭ್ರಾಜಸ್ವತ ಏಷ ತೇಯೋ ನಿಸ್ಸೂರ್ಯಾಯ ತ್ವಾಭ್ರಾಜಸ್ವತೇ ಛಾಯಾ ಸುವರ್ಚಲಾಂಬಾಸಮೇತ ಶ್ರೀ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಓಂ ರಾಮ್ ಉದ್ಯನ್ನದ್ಯ ಮಿತ್ರಮಃ ಮಿತ್ರಾಯ ನಮಃ ಓಂ ಹ್ರೀಂ ಆರೋಹನ್ನುತ್ತರಾಂ ದಿವಂ ರವಯೇ ನಮಃ ಓಂ ಹ್ರೂಂ ಹೃದ್ರೋಗಂ ಮಮ ಸೂರ್ಯ ಸೂರ್ಯಾಯ ನಮಃ ಓಂ ಹ್ರೈಂ ಹರಿಮಾಣಂಚ ನಾಶಯ ಭಾನವೇ ನಮಃ ಓಂ ಹ್ರೌಂ ಶುಕೇಶು ಮೇ ಹರಿಮಾಣಂ ಖಗಾಯ ನಮಃ ಓಂ ರಹ रूपणाकाशुदद्मषे पूष्णे नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमानन्निदद्मसे मरीचये नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौं विशन्तं मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहं द्विषतो रथम् भास्कराय नमः ॐ राम ह्रीं उद्यन्नद्यमित्रमहः हारोहन्नुत्तराम् दिवम् मित्ररविभ्याम् नमः ॐ ह्रूं ह्रैं ऋजोगम् मम सूर्य हरिमाणम् च नाशय सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकाशु दद्मषे खगपूषभ्याम् नमः ॐ ह्रां ह्रीं अतो हारिद्रवेषु मे हरिमानन्निदद्मसे हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रूं ह्रैं उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौं ह्रः विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् अर्कभास्कराभ्याम् नमः ॐ राम ह्रीं ह्रूं ह्रैं उद्यन्नद्यमित्रमः हारोहन्नुत्तराम् दिवम् हृदोगम् मम सूर्य हरिमाणम् च नाशय मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेषु मे हरिमाणम् रोपणाकाशु दद्मषे अतो हारिद्रवेषु मे हरिमाणम् निदद्मषे खगपूषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ राम ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् हृदोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकाशु दद्मषे मित्ररविसूर्यभानुखगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अतो हारिद्रवेषु मे हरिमाणम् निदद्मसे उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् हिरण्यगर्भमरीचिरादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ಭವ್ಯನ್ನದ್ಯಮಿತ್ರಮಃ ಆರೋಹನ್ನುತ್ತರಾಂ ದಿವಂ ಹೃದೋಗಂ ಮಮ ಸೂರ್ಯ ಹರಿಮಾಣಂ ಚ ನಾಶಯ ಶುಕೇಶು ಮೇ ಹರಿಮಾಣಂ ರೋಪಣಾಕಾಸು ದದ್ಮಸಿ ಅಥೋ ಹರಿದ್ರವೇಶು ಮೇ ಹರಿಮಾಣಂ ನಿದದ್ಮಸಿ ಉದಗಾದಯಮಾದಿತ್ಯ ವಿಶ್ವೇನ ಸಹಸಾ ಸಹ ವಿಶಂತಂ ಮಮ ರಂಧಯನ್ನ ಮೋ ಅಹಂ ದಿಶತೋರಥಂ ಮಿತ್ರರವಿ ಸೂರ್ಯ ಭಾನು ಖಗ ಪೂಷ ಹಿರಣ್ಯ ಗರ್ಭ ಮರೀತ್ಯಾದಿತ್ಯ ಸವಿತ್ರರ್ಕ ಭಾಸ್ಕರೇಭ್ಯೋ ನಮಃ ಆದಿತ್ಯೋ ವಾ ಏಷ ಏತನ್ಮಂಡಲಂ ತಪತಿ ತತ್ರ ತಾರುಚಸ್ತದೃಚಾ ಮಂಡಲ ಗುಂಸರುಚಾಂ ಲೋಕೋಥಯ ಏಷ ಏತಸ್ಮಿನ್ ಮಂಡಲೇ ಚಿರ್ದೀಪ್ಯತೇತಾನಿ ಸಾಮಾನಿ ಸಸಾಂನಾಂ ಲೋಕೋಥಯ ಏಷ ಏತಸ್ಮಿನ್ ಮಂಡಲೇ ಚಿಷಿ ಪುರುಷಸ್ತಾನಿ ಯಜೋ ಗುಂಸಿ ಯಜುಷಾ ಮಂಡಲ ಗುಂಸ ಯಜುಷಾ ಲೋಕಸೈಷಾತ್ರಯೇವ ವಿದ್ಯ ತಪತಿಯ ಏಷೋಂತರಾದಿತ್ಯೇ ಹಿರಣ್ಯಯ ಪುರುಷಃ ಛಾಯಾಸು ವರ್ಷಲಾಂಬಾದಮೇತ ಶ್ರೀ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಆದಿತ್ಯೋ ವೈ ತೇಜ ಓಜೋ ಬಲಂ ಯಶಶ್ಚಕ್ಷುಶ್ರೋತ್ರಮಾತ್ಮಾ ಮನೋ ಮನ್ಯುರ್ಮನುರ್ಮೃತ್ಯುಃ ಸತ್ಯೋ ಮಿತ್ರೋ ವಾಯುರಾಕಾಶ ಪ್ರಾಣೋ ಲೋಕಪಾಲಕಂ ಕಿಂಕಂ ತತ್ ಸತ್ಯಮನ್ನಮೃತೋ ಜೀವೋ ವಿಶ್ವ ಕತಮಸ್ವಯಂಭು ಬ್ರಹ್ಮೈತದಮೃತ ಏಷ ಪುರುಷ ಏಷ ಭೂತಾನಾಮಧಿಪತಿರ್ಬ್ರಹ್ಮಣಸ್ಯಾಯುಜ್ಯಗುಂ ಸ ಲೋಕತಾಮಾಪ್ನೋತ್ಯೇತಾಸಾಮೇವ ದೇವತಾನಾಗುಂ ಸಾಯುಜ್ಯಗುಂ ಸಾಷ್ಟಿತಾಗುಂ ಸಮಾನ ಲೋಕತಾಮಾಪ್ನೋತಿ ಯ ಏವಂ ವೇದೇತ್ಯುಪನಿಷತ್ ಛಾಯಾಸು ವರ್ಚಲಾಂಬಾ ಸಮೇತ ಶ್ರೀ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಓಂ ಶಾಂತಿ 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 ಓಂ ಸಹನಾಭವತು ಸಹನೌ ಭುನಕ್ತು ಸಹ ವೀರ್ಯಂ ಕರವಾವಹೈ ತೇಜಸ್ವಿನಾವತೀತಮಸ್ತು ಮಾ ವಿದ್ವಿಷಾವಹೈ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಅಥ ಪುರುಷೋ ಹ ವೈ ನಾರಾಯಣೋ ಕಾಮಯತ ಪ್ರಜಾಸೃಜೇಯೇತಿ ನಾರಾಯಣಾತ್ ಪ್ರಾಣೋ ಜಾಯತೆ ಮನಃ ಸರ್ವೇಂದ್ರಿಯಾಣಿ ಚ ಕಂ ವಾಯು ಜ್ಯೋತಿರಾಪ ಪೃಥಿವೀ ವಿಶ್ವಸ್ಯ ಧಾರಿಣಿ ನಾರಾಯಣಾತ್ ಬ್ರಹ್ಮ ಜಾಯತೆ ನಾರಾಯಣಾತ್ ರುದ್ರೋ ಜಾಯತೆ ನಾರಾಯಣಾತ್ ಇಂದ್ರೋ ಜಾಯತೆ ನಾರಾಯಣಾತ್ ಪ್ರಜಾಪತಯ ಪ್ರಜಾಯಂತೆ ನಾರಾಯಣಾತ್ ದ್ವಾದಶಾದಿತ್ಯಾ ರುದ್ರಾ ವಸವಃ ಸರ್ವಾಣಿ ಚ ಛಂದಾಗುಂಸಿ ನಾರಾಯಣಾತ್ ದೇವ ಸಮುತ್ಪದ್ಯಂತೆ ನಾರಾಯಣೇ ಪ್ರವರ್ತಂತೆ ನಾರಾಯಣೇ ಪ್ರಲೀಯಂತೆ ಓಂ ಅಥ ನಿತ್ಯೋ ನಾರಾಯಣಃ ಬ್ರಹ್ಮಾ ನಾರಾಯಣಃ ಶಿವಶ್ಚ ನಾರಾಯಣಃ ಶಕ್ರಶ್ಚ ನಾರಾಯಣಃ ದ್ಯಾವಾ ಪೃಥಿವ್ಯೌ ಚ ನಾರಾಯಣಃ ಕಾಲಶ್ಚ ನಾರಾಯಣಃ ದಿಶಶ್ಚ ನಾರಾಯಣಃ ಊರ್ಧ್ವಶ್ಚ ನಾರಾಯಣಃ ಅಧಶ್ಚ ನಾರಾಯಣಃ अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वं यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्यास्ताक्षरम् पदम् यो ह वै नारायणस्यास्ताक्षरम् पदमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् प्रायस्पोषम् गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समवरत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानगनम् तस्माद्दिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो योधीते प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायमधीयानो दिवसकृतम् पापम् नाशयति माद्यन्दिरमादित्याभिमुखो धीयान् पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।